अस्तु सर्वेभ्यो नमः, स्वागतं। गतवर्गे वयम् आत्मनेपदधातूनां प्रत्ययस्य के विषये पठितवन्तः, अपि विशेषणविशेष्यभावस्य विषये पठितवन्तः। तस्य प्रश्नाः सन्ति वा? अस्तु, प्रश्नाः न सन्ति चेत् कथां पठामः। प्रथमतया पूर्णकथां पठामः, प्रथमतया कथां पठित्वा अर्थम् अवगच्छामः, तदनन्तरं विभक्तेः विषये, विशेषणविशेष्यभावस्य विषये वयं पश्यामः। अस्तु, अस्तु, प्रथमतया प्रिया भगिनी, भवती प्रथमं परिच्छेदं पठतु।
पाण्डवाः वनवासम् आचन्तरः बदरिकाश्रमम् आगताः। द्रौपद्या सहिता ते तत्र रमणीयेषु काननप्रदेशेषु विहरन्तः रमन्ते, द्रौपदी अपि विहरन्ति मोदते।
पाण्डवाः वनवासम् आचरन्तः बदरिकाश्रमम् आगताः इत्युक्ते किम्?
They went to the forest and they reached the ashramam, Badrika ashramam.
Samichinam. Draupadya sahitaha te tatra ramaniyeshu kanana pradeshesu viharantaha ramante. इत्युक्ते किं नरसिंहमूर्ति महोदय, भवान् वदति वा?
सो द्रौपद्या सहित अलाङ्ग् वित् द्रौपदी आपा ते दे रमणीयेषु कामना विहरन्तः देवर् काननप्रदेशु देवर् they were roaming or they were traveling or they were enjoying, I can say, in that beautiful forest area.
Samichina. Draupadi api viharanti modate nama
api viharanti modate. Draupadi was also delighted or enjoying, you can say.
एकदा द्रौपदी वायुना आनीतम् एकं सुन्दरं पुष्पम् ईक्षते, तत् सौगन्धिकं कमलम् इति सा जानीते। सा तादृशानि अधिकानि पुष्पाणि कामयते, अतः सा पतिं भीमसेनं प्रार्थयते, भवान् एतादृशानि अन्यानि बहूनि पुष्पाणि आनयतु। अत्र एकदा द्रौपदी वायुना आनीतम् एकं सुन्दरं पुष्पम् ईक्षते नाम
वन्स् द्रौपदी सा द ब्यूटिफुल् फ्लवर् ब्राट् बै द विण्ड् सुन्दरं पुष्पम् ईक्षते इस् लैक् न ईक्षते so she liked that flower.
No, drishtavati
drishtavati okay That's what she saw, the beautiful flower brought by the wind.
Oh. Astu, anantaram Surendra Mahodaya bhavan patatu. अस्तु प्रिया भगिनी भवती वदतु. तत् सौगन्धिकं कमलं
तत् सौगन्धिकं कमलम् इति सा जानीते.
इत्युक्ते किम्?
सौगन्धिकं कमलम् इति सा जानीत. शी नेवर् knew such a beautiful flower, Pagini? Before her. Sa Jani. No, I'm not sure, Pagini. Welcome.
Understood.
That Saugandikam Kamalam.
Beautiful, Pagini? Saugandikam means?
Saugandikam means beautiful.
Is the name of the flower?
The smell is beautiful.
It's beautiful, yes.
Sa janite. Sa janate.
So she understood that the flower has a beautiful...
She knew that it was a beautiful smelling flower.
That is fragrance, the fragrant flower.
Okay. She knew that the flower was smelling beautiful.
Yeah.
Okay. Sa drishani adhikani pushpani kamayate. She wanted more of the same kind of flower. Is that right, Bhagini?
Yes. Sa tadrishani adhikani pushpani kamayate.
That is the liked.
Ataha sa patin. दीनसेनं प्रार्थयते भवान् एतादृशानि अन्यानि बहूनि पुष्पाणि आनयतु इति. देर्फोर् शी आस्क्ड् हर् हस्बेण्ड् दीनसेन केन् यु प्लीस् गेट् मी मोर् आफ् द same flower.
Samichina. Astu. Anantaram. Surendra Mahodaya bhavan patato.
Bhimasenaha gadapanihi sanpratisthate. Tam evam disham gatva saha गंधमादनपर्वते सर्वत्र मृगयते. भीमसेन स्टार्टेड विथ हिज गता इन सर्च ऑफ द फ्लावर. देन ही वेंट टुवर्ड्स ऑल ओवर द गंधमादन पर्वत फॉर इन सर्च ऑफ दिस फ्लावर. इज इट करेक्ट?
पुनः वदतु महोदय.
भीमसेन गदापाणी मीन्स ही अलॉन्ग विथ हिज गदा ही टुक हिज गदा.
No, no, no. Atra, gada panihi means, gada means, panihi means, fist. So, the, gada in his fist.
Gada in his fist, he took it and he started, he went around the Gandhamadan Parvat, searching for the flowers.
Samichinam.
Bhagini, what is the word sun, why they have used this?
Sun is asti. The word asti, the verb asti, it is the it is called one second, it is called shatra pratyaya.
Okay. Pratisthate means departed, no? Okay.
अनन्तरं आं वदतु महोदय.
सर्वे प्राणिनः तं कुतूहलेन निरीक्षन्ते. he observed or he checked all the other animals in all other animals were looking at him in awe, like that. Is it correct? Others were looking at him.
All the?
Not that he was only looking. Other animals, sarve praninaha tam, kutuhalena nirikshante, means they are observing him.
I think... while observing, he was going forward, no? Kutuhalena nirikshante.
While he was going forward, other animals were observing him.
Others, where it is?
Sarve praninaha.
Okay.
Atah agre gatah bhimasenah kadalivanam alokate. From there he went to kadalivan. Tatra hanuman nidravashamah asita. There Hanuman was sleeping. Sah swargataram avrutyam shete ma. No, I am not able to get this. Sah swargadwaram avrutya shete sma. He was obstructing the door. Hanuman was obstructing the door with his tail.
Samichina.
Is it?
Nidrati. He is sleeping.
No, he was sleeping. Okay, Shetan is sleeping. Okay.
Astu, idanim priya bhagni bhavati vadatu.
Bhagni, sorry, I'm not able to hear Mahodaya at all. I'm not sure where we are.
Astu. Bhimasenaha tasya samipam. Here.
Okay. Is it just for me, Bhagni? I was not able to hear the audio at all. Everybody else I'm able to hear.
I'm able.
Mahodaya's voice I couldn't hear. Okay. Bhimasenaha tasya samipam gatva simhanadam kurute. So he made the sound of a lion after going next to it. Tada Hanuman lochane ishad unmilya mayate. Not sure what that means, Bhagini. Hanuman lochane.
Hanuman looked at him by opening his eyes.
A little bit. He opened his eyes a little bit and he smiled.
Okay.
Usmayate means smile. Tataha bhashate cha. Kimartam sukha suktham mam prabodhayatsi. Tvam kaha. Kimartam agataha. Yeshaha devalokasya margaha vartate.
इदानीं नरसिंहमूर्तिमहोदय भवान् पठतु.
अत्र मनुष्याणां प्रवेश्य अनुमति ज्ञा विद्यते इति. सो देर् इस् अत्र मनुष्य देर् इस् नो ह्यूमन् बीङ्ग् एण्टर्ड् or pravesh anumati. There is no permission for human beings. There does not exist a permission. That what vidyate is exist, no? So there is no permission to enter that area. अत्र मनुष्यः प्रवेश अनुमति न विद्यते इति. तदा भीमसेनः भूते अहं कुन्तीपुत्रः भीमसेनः एतेन मार्गेण गन्तुम् इच्छामि, तम् उत्तिष्ठ मार्गं प्रयच्छ इति. तदा भीमसेन स्टार्टेड् टेलिङ्ग् हिम् आर् आन्सर्ड् ऐ एम् कुन्तीपुत्र सन् आफ् कुन्ती भीमसेनः एतेन मार्गेण ऐ एम् गोयिङ्ग् इन् द ऐ वाण्ट् टु गो इन् दिस् रूट् तम् उत्तिष्ठ यु गेट् अप् अण्ड् गिव् वे इति. सो हनुमान् वदति, हनुमान् स्पीक्स्, अहं व्याधिपीडितः, सो ऐ एम् सिक्, अतः उतस्तु मां शक्तिः न विद्यते. ऐ केनाट् गेट् अप्, ऐ एम् वीक्. यदि त्वया अवश्य गन्तव्यं तर्हि मां लङ्घादयित्वा गच्छ इति. सो यदि
लङ्घायित्वा
गच्छ. सो यदि त्वया इफ् यु वाण्ट् टु गो keep the tail aside.
Or you can jump from it.
Or shall, if you want, should go tarhi, then you have to...
You can cross me.
If you want to cross me, keep the tail aside. Tada Bhimasenaha vadati. Then Bhimasena talks. परमात्मा देहं व्याप्य अवतिष्ठते इति अहं जाने. परमात्मा देहं, परमात्मा इस् गाड् व्याप्य उत्तिष्ठ इति अहं जाने. ऐ डोण्ट् नो गाड् ईस् प्रेसेण्ट्, करेक्ट् भगिनि? परमात्मा God is deham vyapya. God is present in the body, I think, no?
Yes.
Present in the body. Tava langanena tasya avamanam kartum na utsahe. So tava langana, by tail, I cannot under tava langanena तस्य अवमानेन, अण्डर् एस्टिमेट् ऐ थिङ्क् आर् इन्सल्टेड् इति एन्तुसियासिं कर्तुं न उत्साहे. अन्यथा हनुमान् सागरम् इव त्वा लङ्घादियत्वा गच्छेयम् इति. Or else Hanuman Sagaram, how Hanuman have crossed that ocean with this tail?
Bhagini, one question.
Yes.
So you know there are two Shashti Vibhaktis here, Tava and Tasya. Tava Langhanena. So Tava is yours, right? It is Madhyama Purusha Tvam Shashti Vibhakti. And Tasya is Sahas Shashti Vibhakti. So my question is, what does that mean? Tava yor langanena tasya avamananam kartum na uts tasya he.
By crossing, I don't want to insult you.
What does tasya? Tasya means his, right?
Yours.
Okay, tasya. I thought you were sahad. Tasya becomes a pratama purusha again, right?
It's paramatma.
Paramatma is his name.
Okay.
I do not want to
cross
paramatma. So, astu anantaram.
I'm not able to understand the meaning of last sentence. Anyatha Hanuman Sagaram Iva Twam Langayitva Gacheyam means
what? Oh, if that was not the case, I would have jumped over you the way Hanuman did. The way Hanuman jumped over the ocean.
The way Hanuman jumped over the sea.
Gacheyam is past tense. Hmm? Gacheyam. Will you continue, Bhagini? Hanuman Purchati Kaha Saha Hanuman.
Where is it? Idanim Gopal Mohdiya Atwa Mohan Mohdiya Patativa?
Yes, Bhagini. Hanuman. One second. Hanuman Purchati. कः सः हनुमान् किमर्थं सः सागरं लङ्घिगतवान् इति हनुमान् पृच्छ हनुमान् आस्क् हू इस् हनुमान् हनुमान् कः कः सः हनुमान्
Mm-hmm.
Who is he? Right?
Hanuman, that yeah, you are talking Hanuman. About.
Yeah. What does... Kimartham, what do you mean by him crossing the sea? Is that what... Kimartham means... what is the meaning of him crossing that sea, right? Or something... Or the sea.
What do you mean?
yeah. Kimartham Sagaram Langitavan. So what do you mean by him crossing the sea? Hanuman Mama Bhrata Ramayane Saha Ati Vikhyataha. So Hanuman is my brother. He is very popular in Ramayane. Saha Ativikhyata is very popular in the Ramayanam. He is very popular. Rama Patnyaha Sitayaha Anveshanaya Saha Shatayojana Vistrutam Sagaram Langitavan. So Rama Patnya Yaha. So again, this is this Shashti Vibhakti for Sita? He went searching for Sita and Shatayojana Vistrutam Sagaram. Shatayojana is some distance.
Hundred yojana.
Hundred yojana distance he jumped.
Yeah.
Langitavan. Ahamapi bale parakrame yuddecha tena tulyaha. वर्ते अहमपि मी तु बले पराक्रमे युद्धे च स्ट्रेङ्थ् वेलर् फैट् च तेन तुल्यः ओके तेन तु तेन इस् अगेन् तृतीया फोर् सो इस् ईक्वल् इन् स्ट्रेङ्थ् टु हिम् ऐ एम् आल्सो ईक्वल् इन् स्ट्रेङ्थ् टु हिम् इस् दट् वाट् इट् मीन्स् फर् हिम् ओके
I know as much, I have as much strength and power as him.
Tena tulyaha, by him, tena is tritiya, right? Tulya, so tulya means comparison to him or something like that. So I'm equal to him, tulya. Varte, aham api yuddhe cha, tena tulyaha, varte.
Varte compared with two, they two are.
So tulya is yeah, comparison, yeah.
Yeah.
So I'm both. Yeah, I'm equal to him in strength, in valor, and in war.
Compared to him, yeah.
Yeah. You know, this is see, this is where English and Sanskrit are. Tena is by him you know, with him, but. Literally English translation from would become panchami it's like tasmat so this is where it's I think different tena tulyaha vartate iti sa sabhi manam vadati bhimasenah iti sabhi manam sabhi manam I don't know what it means. स्वाभिमानं वदति भीमसेनः अन्ते मार्गं प्रयच्छ इति पुनरपि वदति Do I continue or someone
else? No, I'll stop. Idanim Priya Bhagni Bhavati Vadatu. अस्तु सुरेन्द्रमहोदय भवान् वदतु
हनुमान् वदति जरया मम उत्थातुं शक्तिः नास्ति त्वमेव अनुकम्पया एतत् पृच्छम् अपसार्य गच्छ हनुमान् सेड् बिकास् आफ् ओल्ड् एज् ऐ हेव् नो एनर्जि इनफ् एनर्जि एस् सच् कैण्ड्लि keep aside my tail and go ahead. Is it correct?
Anukampaya.
Anukampaya. Kindly keep aside my tail and go ahead. Or move my tail and go ahead. Shall I go ahead? Bhimasenaha. उच्छे गृहीत्वा एतत् एतं वानरं यमसदनं प्रेषयामि इति मनसा चिन्तयति भीमसेन थॉट कि वाय अन्ली टेल आई विल सेंड दिस वानर टू यम मतलब आई विल किल हिम दैट व्हाट ही थॉट ततः सः अवज्ञया वामहस्तेन पृच्छं गृहीतवान् as such with his left hand he tried to lift or move the tail किन्तु तत् पृच्छं किञ्चिदपि न कम्पते till the tail didn't move at all अधुना भीमसेनः बहुभ्यां पुच्छेत्तु प्रयतति. सो भीमसेन ट्राइड विथ हिज बोथ हैंड्स मूव द टेल, किंतु तत् पुच्छं किंचिदपि न कंपते. तथापि पुच्छं किं न कंपते, स्टिल टेल डिडंट मूव. भीमसेनस्य शरीरं स्विद्यते, हि स्टार्टेड
स्वेटिंग. स्वेटिंग,
यस, स्वेटिंग, स्वेटिंग, करेक्ट. पुनः पुनः प्रयत्नेनापि सः विफलः जायते. अगेन एंड अगेन ही फेल्ड. सः नितरां लज्जते, सो ही स्टार्टेड फीलिंग
अशेम्ड.
अशेम्ड, यस, अशेम्ड. अन्ते सः हनुमन्तं नमस्कृत्यं प्रार्थयते. सो एट द एंड ही रिक्वेस्टेड हनुमन्त कपीशार्दुल मां क्षमायातनं क्षमतां. वानरूप दृकः दृक् भवान् सिद्धः देवः गंधर्वः वा कः इति वदतु. कपीशार्दुल, हे व्हाट इज से मंकी इन इंग्लिश, कपीशार्दुल मतलब विथ रिस्पेक्ट ही वांट्स टू से.
Bhagni, they have used both, no? Kapi as well as Shardula. I think...
Ma Kshamatam, kindly excuse me. In the monkey's face, is it you? Are you some god, Gandharva, or some Siddha Purushaha, like that? Aham Shishyavata Bhavantam Pruchhami. Kindly tell me as your junior or what you can say, student. Krupaya vadatu iti. Tada Hanuman swasya parichayam uktavan. Then Hanuman gave his introduction or information. Bhimasenaha bhaktyatam namaskutvan. Bhimasen, so with respect, he saluted him. Hanuman prityatam alingatvam, galingatvam. Hanuman then caressed him, what you say, took him in his, gave him a hug. Hanuman gave him a hug. भीमसेनस्य प्रार्थनाम् अङ्गीकृत्य रामावतारे स्वस्य यादृशं शरीरम् आसीत् तादृशं विशाल शरीरं दर्शितवान्. सो सब्सिक्वेंट टू दैट, व्हेन भीमसेन रिक्वेस्टेड, ही शोड हिम हिज बॉडी एज बिग एज इट वाज ड्यूरिंग द रामावतार. अन्ते आशीर्भि अनुग्रहम अंतरहितम अभवत. देन ही गेव हिम ब्लेसिंग्स. इज इट करेक्ट?
आम
आम.
इन द एंड हनुमान गेव ब्लेसिंग्स टू भीमा भीमसेन. शैल वी कंटिन्यू? मतलब he reads the story, no?
Astu, idanim we will go from the beginning. Kanimsha. Astu, we will go from the beginning and look at each of the grammaticals. Pandavaha vanavasam acharantaha badarikashramam agataha. Atra kartrupadam kim, what is the subject? What is the subject in the first sentence?
Pandava.
Pandavaha. Okay. What is the astu atra vanavasam acharantaha badarikashramam agataha. Atra Pandavaha is the subject, kartrupadam. Pandavaha acharantaha Pandavaha eva agataha. Kila? Atra Pandavaha kutra acharantaha vanavasam acharantaha. Kutra agataha badarikashramam agataha. Atra acharantaha iti. Shatrapatya. Astu anantram agataha iti kta pratyaha iti. Astu anantaram draupadya sahitaha. Draupadya iti ka vibhakti hi?
Draupadya is shashti.
Shashti.
Oh, Draupadya will be Tritiya.
Draupadi. Draupadya. Idaniam sahitaha iti api kta pratyaha asti. Asso?
Bhagini, can you just explain the word pratyaya, Bhagini, just once?
Asso. Ekanimshaha. Asto. Asto. Gatavarke vayam drishtavantah kila.
Atra yes.
Tumun pratyaha iti asti iti chintayantu. Asto. Tatra patati iti kriyapadam. Asto.
Asto.
Atra tasya rupam asti tun pratyasya patati ityasya tun pratyasya rupam asti patitu. Astu pashyama chet atra vake aham patitum icchami iti. Ityukte kim?
I like to read.
Ah, samichinam. Atra, etasmin vakye, atra kartrupadam kim?
Kartrupadam. Ichha, kartrupadam is aham, right? Aham, it's a noun, right? So aham is a kartrupadam. And
aham.
Kriyapadam is a pata.
Ichami. No.
Even reading, both these are two kriyapadams.
No.
When it comes, right?
No.
Yeah.
This is the Kriyapadam. This is the Kartrupadam.
And
this is a nama pada.
Okay.
Astu. Astu. Atra. Atra. Ta pratyaya. Astu. Draupadya sahita hate tatra ramaniyesh atra. Ramaniyeshu kanana pradeshesu. अत्र रमणीयेषु काननप्रदेशेषु अत्र किमस्ति अत्र किमस्ति
दिस् इस्
बोथ् इन्
विशेषण विशेषण विशेष विशेषण विशेष विशेषणं रे विशेष विशेष
रमणीयेषु काननप्रदेशेषु किम् अस्ति
विशेषविशेषणं
आम् विशेषणविशेष्यभावः अस्ति अत्र का विभक्तिः
सप्तमी
आम् सप्तमी विभक्तिः समीचीनम् अस्तु विहरन्तः कः प्रत्ययः प्रत्ययः वा शत्रुप्रत्ययः वा
शत्रुप्रत्ययः
शत्रुप्रत्ययः समीचीनं रमन्ते अत्र आत्मनेपदी धातुः अस्ति आत्मनेपदी क्रियापदमस्ति अस्तु द्रौपदी अपि विहरन्ती मोदते अस्तु अत्र प्रश्नाः सन्ति वा प्रथमं परिच्छेदम् इदानीं द्वितीयं परिच्छेदं प्रथमं वाक्यं सुरेन्द्रमहोदय भवान् पठतु
एकदा द्रौपदी वायुना अनितम् एकं सुन्दरं पुष्पम् इच्छति तत् सौगर्लिखं कमलम् इति सा जानीते सा तादृशानि अधिकानि पुष्पाणि कामयते अतः सा पतिभीमसेनं प्रार्थयते भवान् एतादृशानि अन्यानि बहूनि पुष्पाणि आनयतु इति
अस्तु अत्र एकदा द्रौपदी वायुना आनीतम् एकं सुन्दरं पुष्पम्. अत्र किमस्ति?
आनीतम् इति प्रत्यय भगिनि.
आम्, आनीतम् इति
तुमन् प्रत्यय.
आनीतुम् इति तुमन् प्रत्ययः. आनीतम् इति ता प्रत्ययः नपुंसकलिङ्गे.
ओके, ता प्रत्यय.
अस्तु. ईक्षते, ईक्षते नाम
आत्मनेपदे.
आत्मनेपदे पश्यति. तत् सौगन्धिकं कमलमिति सा जानीते. अत्र सौगन्धिकं कमलम् इति कः भावः?
विशेषण.
विशेषणविशेषभावः. अस्तु. अनन्तरं सा तादृशानि अधिकानि पुष्पाणि कामयते. अत्रापि विशेषणविशेषभावः. अनन्तरम् अतः सा पतिं भीमसेनं प्रार्थयते. अत्र किम् अस्ति? प्रार्थयते इति किम्?
आत्मनेपदे इति.
आत्मनेपदे धातुः. अस्तु. सा पतिं भीमसेनम्, अत्र पतिं भीमसेनम् इति अपि विशेषणविशेष्यभावः अस्ति किल.
That is Ditiya Vibhakti, na Bhagini?
Aam. Patim Bhimasenam. Anantaram. Bhavan etadrishani anyani bahuni pushpani anayatu. इति अत्र एतादृशानि अन्यानि बहूनि पुष्पाणि आयत. अत्र विशेषणविशेषभावः कुत्र अस्ति?
भगिनि, हियर् एतादृशानि इस् इण्डिक्लैनबल् न? इट् विल् द मीनिङ्ग् नेवर् चेञ्जेस्.
आम्. अत्र एतादृशानि अन्यानि बहूनि पुष्पाणि इति विशेषणविशेष्यभावः अस्ति अत्र. अत्र प्रश्नाः सन्ति वा? न सन्ति चेत् अग्रे गच्छामः. भीमसेनः गदापाणिः सन् प्रतिष्ठते. सन्
भगिनि अन्यानि इत्युक्ते किम्? एतादृशानि अन्यानि बहूनि पुष्पाणि. सो सिमिलर् फ्लवर्स् लैक् दिस् मोर् ऐ वाण्ट् मोर् आफ़् देम् इस् इट्?
ऐ वाण्ट् मोर् सिमिलर् फ्लवर्स्
आफ़् दिस् कैण्ड् आर्
समथिङ्ग्. आफ़् दिस् कैण्ड्. अनन्तरं ताम् एव दिशं गत्वा सः गदा गन्धमादनपर्वते सर्वत्र मृगयते. मृगयते नाम वांटेड तामेव दिशां अत्र ताम नाम काम
ताम
अत्र तामेव दिशं नाम दिशं नाम डायरेक्शन द डायरेक्शन दैट द फ्लावर केम फ्रॉम दैट डायरेक्शन ही वेंट गंधमादन पर्वते अत्र सप्तमी विभक्तिः अस्ति अस्तु सर्वे प्राणिनः तं कुतूहलेन निरीक्षन्ते दे लुक एट हिम इन अ स्कैर्ड वे प्राणिनः एनिमल्स निरीक्षन्ते नाम पश्यन्ति दे ऑब्जर्व अस्तु अग्रे गतः भीमसेनः कदलीवनम् आलोकते आलोकते नाम
ऑब्जर्व कदली Is the Atmanepadi again? Dhatu? Alopati?
Asto. Asto. Anantaram. Tatra Hanuman Nidra Vashagaha. Immersed in sleep. आसीत् सः स्वर्गद्वारम् आवृत्य शेते स्म हि वाज स्लीपिंग जस्ट बिफोर द स्वर्गद्वारम् मीनिंग द डोर टू हेवन
डीप स्लीप यू मीन
आम डीप स्लीप अस्तु अनन्तरं भीमसेनः सारी सः स्वर्गद्वार शेते नाम स्लीप् भीमसेनः तस्य समीपं गत्वा सिंहनादं कुरुते कृतवान् अथवा करोति सिंहनादं इट् इस् अ रोर् लैक् अ लयन् तदा हनुमान लोचने ईषद् उन्नील्य स्मयते ईषद् नाम लिटिल बिट
पार्शियली ओपन
उन्नील्य स्मयते स्माइल ततः भाषते च देन सेस किमर्थं सुखसुप्तं मां प्रबोधयसि Why did you awaken me who was sleeping so nicely? Iti. Tvam kaha, who are you? Kimartam agataha. Bhavan kimartam atra agatavan. Yeshaha devalokasya margaha vartade. Devalokasya margasti yetat. Bhavan kimartam atra agatavan. Atra manushyanam pravish. मानुष्यानां प्रवेशाय अनुमतिः न विद्यते ह्यूमन्स् आर् नाट् अलौड् इन् देर् अस्तु अनन्तरं भीमसेनः ब्रूते ब्रूते नाम
वदति आन्सर्ड स्नेक
अहं कुन्तीपुत्रः भीमसेनः अहं कुन्त्याः पुत्रः भीमसेनः एतेन मार्गेण गन्तुम् इच्छामि मुष्टुबोधिस्वे त्वम् उत्तिष्ठ प्लीस् गेट् अप् मार्गं प्रयच्छ लेट् मी गो हियर्
मार्गं प्रयच्छ मीन्स् प्लीस् डू मी वे
अस्तु अनन्तरम् अहं व्याडि हनुमान् वदति हनुमान् सत् अहं व्याडिपीडितः अस्मि अतः उत्थातुम् अत्र किं प्रत्ययः उत्थातुम्
तुमुन् प्रत्यय तुमुन्
मम शक्तिः न विद्यते नास्ति मम शक्तिः नास्ति उत्थातुम् ऐ डोण्ट् हेव् इनफ् स्ट्रेन्थ् और् एनर्जि टु गेट् अप् यदि त्वया अवश्यं गन्तव्यं तर्हि मां लङ्घयित्वा गच्छ अत्र गन्तव्यम् अत्र तव्यत्पत्ययः गच्च इति अत्र लोट्लकारः तदा भीमसेनः वदति परमात्मा देहं व्याप्य अवतिष्ठते इति अहं जाने ऐ नो दट् गाड् रिसैड्स् इन् एव्री पार्ट् आफ् द बाडी तव लङ्घनेन तस्य अवमाननं भवति इफ् ऐ जम्पिङ्ग् ओवर् हिम् विल् अप्सेट् देम् अण्ड् ऐ डु नाट् विश् टु डू दट् अन्यथा हनुमान् सागरमिव त्वां लङ्घयित्वा गच्छेयम् ओर् एल्स् ऐ वुड् हेव् जम्प्ड् ओवर् यू जस्ट् लैक् हनुमान् जम्प्ड् ओवर् दि ओशन् अनन्तरम् हनुमान् पृच्छति कः सः हनुमान् हनुमान् एव पृच्छति कः सः हनुमान् इति किमर्थं सः सागरं लङ्घितवान् हनुमान् भीमसेनः वदति एतत् हनुमान् मम भ्राता रामायणे सः अतिविख्यातः हि इस् वेरि फेमस् इन् द रामायणं रामपत्न्याः सीतायाः अन्वेषणाय सः शतयोजनविस्तृतं सागरं लङ्घितवान् अत्र किमस्ति रामपत्न्याः सीतायाः अत्रापि विशेषणविशेषभावः अस्ति शतयोजनविस्तृतं सागरम् अत्रापि विशेषणविशेषभावः अहमपि बले पराक्रमे युद्धे च तेन तुल्यः नाम ईक्वल् अहमस्मि इति साभिमानं वदति भीमसेनः अन्ते मार्गं प्रयच्छ इति पुनरपि वदति अट् दि एण्ड् ही आल्सो सेस् प्लीस् लेट् मी गो इति पुनः वदति अस्तु अनन्तरं जरे जरया मम उत्तातुं शक्तिः नास्ति. जरया नाम किम्?
Is it old age? Isn't it?
Jaraya.
Vruddhatva.
Little, I don't have enough. Jaraya mama.
Due to old age.
Due to old age? No. Jaraya mama. Shakti.
Energy. I am weak rather.
Due to old age, I am not able to get up. I don't have the strength to get up. Jaraya mama utthatum shaktihi nasti. Jaraya, due to old age, mama utthatum shaktihi. My strength nasti does not exist. I do not have the strength to get up.
त्वमेव अनुकम्पय कैण्ड्लि एतत् उच्चम् उपसार्य गच्छ. प्लीस् मूव् मै टेल् एण्ड् गो इति हनुमान् वदति. अस्तु, इदानीं भीमसेनः किं वदति? गोपाल् महोदय, भवान् वदतु.
भीमसेनः पुच्छे गृहीत्वा एतं वानरं यमसदनं प्रेषयामि इति मनसा चिन्तयति. भीमसेनः पुच्छे गृहीत्वा एतं वानरं यमसदनं प्रेषयामि इति मनसा चिन्तयति. हि थाट् समथिङ्ग्. पृच्छे गृहीत्वा, होल्डिङ्ग् द टेल्, एतं वानरं, दिस् मङ्की, यमसदनं प्रेषयामि. ऐ डोण्ट् नो वाट् दट् मीन्स् भगिनि.
Sadan means house, Yama's house, you can say.
That is hell. Hello. Yama's place.
Yama's place, yeah.
Oh, I am going to send this monkey to Yama's abode. He is thinking, is it?
Yamalok.
I am going to send this monkey to Yamaloka, he thinks.
Yes.
Right.
इति मनसा चिन्तयति. हि थिङ्क्स् वित् हिस् मैण्ड्, यु नो, हि थिङ्क्स् लैक् दट्. ततः सः अवज्ञया वामहस्तेन पुच्छं गृहीतवान्. ततः सः अवज्ञया, ततः मीन्स् लैक् दट् हि he was holding the, I don't know what avagnya is, vama hastena, left hand, puccham grihitavan. He held the tail with his left hand. Kintu tat puccham kinchidapi na kampate, but that tail did not even move a bit. Adhuna bhimasenaha बाहुभ्यां पुच्छम् उत्क्षेपतुं प्रयतते. ऐ डोण्ट् नो वाट् दट् मीन्स्. अधुना मीन्स् युनो अट् दट् टैम् आर् युनो इन् दिस् टैम्. भीमसेनः बाहुभ्यां, भीमसेनस् बोत् हेण्ड्स् पुच्छम् उत्पेक्षुं प्रयतते. हि वास् ट्रैङ्ग् टु लिफ्ट् इट् वित् बोत् द हेण्ड्स्. तथापि पुच्छं न कम्पते. इवन् देन् दि टेल् वासन्ट् मूविङ्ग्. पुच्छं भीमसेनस्य शरीरं स्विद्यते मीन्स् वाट् यु स्वेटिङ्ग्. भीमसेनस् बाडि वास् स्वेटिङ्ग्. पुनः पुनः प्रयत्नेनापि सः विफलः जायते. इन् स्पैट् आफ् रिपीटेड्लि ट्रैङ्ग् एव्री टैम् हि वास् फेलिङ्ग्. सः नितरां लज्जते, यु नो हि वास् अशेम्ड्. ऐ डोण्ट् नो वाट् नितरां मीन्स्. सः लज्जते मीन्स् हि वास् अशेम्ड्. नितरां, वाट् इस् नितरां भगिनि? सः नितरां लज्जते. अन्ते सः हनुमन्तं नमस्कृत्य प्रार्थयते. इन् दि एण्ड् ही बोड् डौन् टु हनुमान् अण्ड् ही प्लीडेड् टु हिम्. कपीशार्दूल, मां क्षमताम्, प्लीज् फर्गिव् मी. वानररूपधृक् भवान् सिद्धः, देवः, गन्धर्वः वा कः इति वदतु. यू आर् इन् मङ्कीस् फार्म्, आर् यू ए सिद्धदेव सिद्धपुरुषः, देवः, गन्धर्वः? हू आर् यू, प्लीस् टेल् मी. अहं शिष्यवत् भवन्तं पृच्छामि. एस् ए डिसैपल् ऐ एम् आस्किङ्ग् यू, कृपया वदतु इति, प्लीस् टेल्. तदा हनुमान् स्वस्य परिचयम् उक्तवान्. देन् ही हनुमान् इण्ट्रड्यूस् गेव् हिस् इण्ट्रोडक्षन् आर् इण्ट्रड्यूस् हिम्सेल्फ्. भीमसेनः भक्त्या तं नमस्कृतवान्. भीमसेना वित् भक्ति ही बौड् डौन् टु हिम्. हनुमान् प्रीत्या तम् आलिङ्गतवान्. प्लीस्ड् वित् हिम्, हनुमान् एम्ब्रेस्ड् भीमसेना. ततः सः भीमसेनस्य प्रार्थनाम् अङ्गीकृत्य रामावतारे स्वस्य यादृशं शरीरम् आसीत् तादृशं विशालं शरीरं दर्शितवान्. देन् अग्रीङ्ग् टु भीमसेनास् रिक्वेस्ट्, जस्ट् एस् हिस् बाडि वास् सो बिग् इन् रामावतारम्, हि मेड् इट् वेरि ह्यूज् अण्ड् हि प्रेसेण्टेड् हिम्सेल्फ् टु भीमसेना. अन्ते तम् आशीर्भिः अनुगृह्य अन्तर्हित अभवत्. अन्ते तम् आशीर्भिः अनुग्रह, ही गेव् हिम् ब्लेस्सिङ्ग्स् अण्ड् अन्तर्हित अभवत्. अभवत् मीन्स् वाट् ही went, I don't know. I don't understand what antarhita abhavat is, bhagini.
Abhavat means became,
What is antarhita abhavat?
Disappeared. He gave the darshan and he disappeared. Antarhita. Adrusha.
So he became invisible.
Invisible, adrusha bhavatu, yeah.
अभवत् अभवत् भवति. सो भवत्
अभवत् बिकम् रैट् और् बिकेम्?
या, दिस् इस् पास्ट् टेन्स्. अभवत् इस् पास्ट् टेन्स् आफ् या बिकम्.
बिकेम् इन्विजिबल्.
इन्विजिबल्, यस्, इन् द पास्ट्.
ही गेव् हिम् ब्लेसिङ्ग्स् अण्ड् डिसपियर्ड्.
यस्, दट्स् ऑल्.
I have to leave now, Bhagini. Apologies.
Astu, astu, Mahodaya. Anta, astu. Yani, atra prashna ha santi va?
Not on this, Bhagini, but, you know, last week's class, I was not able to access, Bhagini. There's just some audio link, but, you know, we had good slides also. So I'm not able to access that.
Is the link not working, Mahodaya?
Yeah, it is working, actually.
It is working, but where to find it? It is only audio.
No, below that there is a video link. Yeah.
Oh, do you want just the notes, Mahodaya?
No, even the audio and the video link. So because there is an audio link only which is there on the email. There is I did not see the video link where, you know, we had the slides and all that last week.
If you click on the audio link, you will get it. It will take to the website. There you can see it. At 14, it is there. Nouns, pratyas, audio, video.
Yes. I'm seeing it now. Okay.
At the last.
Yes, Mahode, I just saw it. Yes, thank you.
Yeah. अन्य प्रश्नाः सन्ति वा न सन्ति चेत् अत्र अभ्यासं कुर्मः अस्मिन् पाठे स्थूलाक्षरैः मुद्रितानि पदानि अत्र लिखत सो दे आर् टेलिङ्ग् अस् टु जस्ट् रैट् आल् द आत्मनेपदिता सो अस्ति रमन्ते मोदते प्रार्थयते प्रतिष्ठते मृगयते निरीक्षन्ते शेते कुरुते स्मयते भाषते विद्यते वर्तते भूते विद्यते अवतिष्ठते जाने वर्ते कम्पते प्रयतते स्विद्यते जायते लज्जते प्रार्थयते अस्तु
Bhagani, is it Shete word is there? It is Atmanepadi, Shete?
Shete api Atmanepadi.
Okay, thank you.
Yes. Atra. Etani vakyani savadhanataya uchaihi patata parishilayatacha. Surendra Mohantya Bhavan. Nantiva.
अर्जुनः पृच्छति मूर्खः शोचति अग्निः ज्वलति अहितः निन्दति एषा अभिनन्दति देन् कृष्णः भाषते पण्डितः मन्यते सूर्यः प्रकाशते श्रेयः श्रेयः विद्यते सः वर्तते तानि वाक्यानि सावधान इच्छै पठत परिशीलयत च एतेषु वाक्येषु क्रियापदेषु परस्मैपदी धातूनां रूपाणि प्रायुक्तानि सन्ति मीन्स् वाट् एतेषु वाक्येषु क्रियापदेषु परस्मैपदी धातूनां रूपाणि प्रायुक्तानि सन्ति एतानि सर्वाणि रूपाणि लट्लकारस्य प्रथमपुरुषैकवचनं रूपाणि
अत्र परस्मैपदी धातवः सन्ति आत्मनेपदी धातवः सन्ति बोथ् आर् इण्टर्चेञ्जबल् अस्तु
सो आन् द लेफ्ट् सैड् इस् परस्मैपदी एण्ड् आन् द
रैट् सैड्
आत्मनेपदी सो बट् द मीनिङ्ग्स् आर् द सेम् शोचति मन्यते द सेम् रैट् अभिनन्दति वर्तते सो द मीनिङ्ग्स् आर् द सेम् रैट् भगिनि दट्स् वाट् इट् मीन्स्
आम्
No, Bhajini, one question is there. On the fifth, Abhinandati means is welcome or greeting, no? Applauding.
Congratulate.
Congratulating. But Vartate is behaving, no? Sa Vartate meaning... yeah, it could be... Pravartate, Vartate... that is not exactly, I think, both are different. Nindati means blaming, no? But Vidyate is exist. Both are different.
Nindati nama scold.
Scold or blame. But Vidyate is exist. Na Vidyate, Vidyate. But is it equal? I think both are different words, no?
Different.
Yeah, no relation, I think.
Atra no relation.
Purchate, purchate. Yeah. Shoshati, shoshate.
So, Lat Lakaram is present tense, right, Bhagini?
Yeah. Lat Lakarasya Pratama Purushai Purushai to Vachana Rupani.
अद्य अत्र स्थगयामः अस्तु अद्य ऐ विल् सेण्ड् होम्वर्क् दिस् वीक् एण्ड् ऐ विल् सेण्ड् इट् टुडे सो देट् एव्रिवन् हेस् टैम् टु डू इट् अस्तु अत्र स्थगयामः धन्यवादः नमस्कारः
धन्यवादः भगिनि